श्री परमात्मने नमः। अथ पञ्चदशोऽध्यायः। श्री भगवानुवाच। ऊर्ध्वमूलमत शाख मश्वत्थम् प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तम् वेद स वेदवित्। अधश्चोर्ध्वम् प्रसृतास्तस्य शाखा गुण प्रवृद्धा विषय प्रवाला। अधस्य मूलान्यनुसन्ततानि कर्मानुबन्धेन मनुष्यलोके। न रूपमस्येह तथोपलभ्यते नान्तो न चादीर्ण च सम्प्रतिष्ठा। अश्वत्थमेनम् सुविरूढमूल मसङ्गशस्त्रेण दृढेन चित्वा ततः पदम् तत्परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणि। निर्माणमोहाजितसङ्गदोषा अध्यात्मनित्याभिनिवृत्तकामः। द्वन्द्वैर्विमुक्तः सुखदुःखसंज्ञैर्गच्छन्त्य मूढः पदमव्ययम् तत्। न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमम् मम। ममैवांशो जीवलोके जीवभूतः सनातनः। मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति। शरीरम् यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानि वाशयात्। श्रोत्रम् चक्षुःस्पर्शनम् च रसनम् घ्राणमेव च। अधिष्ठाय मनश्चायम् विषयानुपसेवते। उत्क्रामन्तम् स्थितम् वापि गुञ्जानम् वा गुणान्वितम्। विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चैनम् पश्यन्त्यात्मन्यवस्थितम्। यतन्तो प्रकृतात्मानो नैनम् पश्यन्त्य चेतसः। यदादित्यगतम् तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्। रामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधि सर्वा सोमो भूत्वा रसात्मकः। अहम् वैश्वानरो भूत्वा प्राणिनाम् देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नम् चतुर्विधम्। सर्वस्य चाहम् हृदय सन्निविष्टो मत्तस्मृतिर्ज्ञानमपोहनञ्च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्। द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षर सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विवर्त्यव्यय ईश्वरः। यस्मात्क्षरमतीतोः मक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च कथितः पुरुषोत्तमः। यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति माम् सर्वभावेन भारत। इति गुह्यतमम् शास्त्र मिदमुक्तम् मया नघ। एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत कृतकृत्यश्च भारत। ॐ तत्सदिति श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः।